तस्मिन् विप्रकृताः काले तारकेण दिवौकसः तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः
तस्मिन्निति तस्मिन् काले पार्वती शुश्रूषा काले तारकेण तारकनाम्ना वज्रनखपुत्रेण केनचित् असुरेण विप्रकृताः उपप्लुताः दिवम् ओकः स्थानम् एशान्ते दिवौकसः देवाः दिवम् स्वर्गेऽन्तरिक्षे च इति विश्वः द्यौः ओक इति पक्षे पृषोदरादित्वात् साधुः तुरम् त्वरितम् साहयति अभिभवतीति तुराषाट् साहयतेः चौरादिकात् क्विप् न हि वृतिवृषि इत्यादिना पूर्वपदस्य दीर्घः प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् मुग्धबोधकारस्तु तुराशब्दः ताबन्त इत्याचष्टे तम् तुरासाहम् देवेन्द्रम् अजादिषु साड्रूपत्वाभावात् सहेस्साडस्सः इति षत्वम् न भवति पुरोधाय पुरस्कृत्य स्वयम्भुवः ब्रह्मणः इदम् स्वायम्भुवम् संज्ञापूर्वकविधेः अनित्यत्वात् ओर्गुणः इति गुणो न धाम स्थानम् ययुः ब्रह्मलोकम् जग्मुः इत्यर्थः
तेषाम् आविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् सरसाम् सुप्तपद्मानाम् प्रातर्दीधितिमानिव
तेषामिति परिम्लानमुखश्रियाम् परिम्लाना परिक्षीणा मुखश्रीः मुखकान्तिः येषाम् तथोक्तानाम् तेषाम् देवानाम् ब्रह्मा सुप्तपद्मानाम् मुकुलितारविन्दानाम् सरसाम् प्रातः दीधितिमान् सूर्यः इव आविरभूत् प्रकाशोऽभूदित्यर्थः प्रकाशे प्रादुराविस्यात् इत्यमरः सूर्योपमानेन तेषाम् लानिहरणत्वम् सूचितम् अत्र उपमालङ्कारः तल्लक्षणम् तु स्वतःसिद्धेन भिन्नेन सम्मतेन च धर्मतः साम्यमन्येन वर्ण्यस्य वाच्यम् चैकपदोपमा इति
अथ सर्वस्य धातारम् ते सर्वे सर्वतो मुखम् वागीशम् वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे
अथेति अथ आविर्भावानन्तरम् सर्वे ते देवाः सर्वतः समन्ततः मुखानि यस्य तम् सर्वतो मुखम् चतुर्मुखमित्यर्थः वागीशम् वाचाम् विद्यानाम् ईशम् सर्वस्य जगतः धातारम् स्रष्टारम् ब्रह्माणम् प्रणिपत्य नमस्कृत्य अर्थात् अनपेताभिः अर्थ्याभिः अर्थयुक्ताभिः इत्यर्थः धर्मपथ्यर्थन्यायादनपेते इति यत्प्रत्ययः वाग्भिः उपतस्थिरे तुष्टुवुरित्यर्थः उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम् इत्यात्मनेपदम् स्तुतिप्रकारमाह नमः इत्यादिभिः द्वादशभिः श्लोकैः
नमस्त्रिमूर्तये तुभ्यम् प्राक्सृष्टेः केवलात्मने गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे
नम इति हे भगवन् इत्यध्याहार्य व्याख्येयम् सृष्टेः प्राक् अन्यारात् इत्यादिना ऐचूत्तरपदयोगे पञ्चमी केवलात्मने एकरूपाय आत्मा वा इदमेक एव अग्र आसीत् इति श्रुतेः निर्णीते केवलमिति त्रिलिङ्गम् त्वेककृत्स्नयोः इत्यमरः पश्चात् सृष्टिप्रवृत्तिकाले विभज्यते अनेनेति विभागः गुणानाम् सत्त्वादीनाम् त्रयमेव विभागो यस्य तस्मै गुणाः सत्त्वम् रजस्तमः इत्यमरः भेदम् उपाधिम् स्रष्टृत्वादिकमित्यर्थः उपेयुषे प्राप्तवते उपेयिवा ननाश्वाननूचानश्च इति निपातः अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररूपिणे तुभ्यम् नमः नमस्वस्तीत्यादिना चतुर्थी उक्तम् च नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च तमोरूपाय संहारे त्रिरूपाय स्वयम्भुवे इति
यदमोघमपामन्तः उक्तम् बीजमज त्वया अतश्चराचरम् विश्वम् प्रभवस्तस्य गीयसे
यदिति न जायत इत्यजः हे अज अपाम् जलानाम् अन्तः त्वया यत् अमोघम् अवन्ध्यम् बीजम् वीर्यम् उक्तम् निक्षिप्तम् मुक्तम् इति पाठे विसृष्टमित्यर्थः शुक्रम् तेजो रेतसी च बीजवीर्येन्द्रियाणि च इत्यमरः अतः ते बीजात् चराचरम् स्थावरजङ्गमात्मकम् समाहारे द्वन्द्वैकवद्भावः विश्वम् जगत् उत्पन्नमिति शेषः तस्य विश्वस्य प्रभवति अस्मादिति प्रभवः कारणम् गीयसे अदश्चराचरम् विश्वम् प्रसवस्तस्य गीयते इति पाठे अद इदम् चराचरम् विश्वम् तस्य बीजस्य प्रसवो गीयते लोक इति शेषः अत्र मनुः अपयेव ससर्ज्यादौ तासु वीर्यमवासृजत् तदण्डमभवद्धैमम् सहस्रांशु समप्रभम् इति
तिसृभिस्त्वम् अवस्थाभिः महिमानमुदीरयन् प्रलयस्थितिसर्गाणाम् एकः कारणताम् गतः
तिसृभिरिति एकः सृष्टेः प्राक् केवलः त्वम् तिसृभिः अवस्थाभिः त्रैगुण्यमयीभिः हरिहरब्रह्मस्वरूपाभिः महिमानम् निजशक्तिम् उदीरयन् जृम्भयन् प्रलयस्थिति सर्गाणाम् अन्तःस्थित्युत्पत्तीनाम् कारणताम् गतः इदम् पश्चाद्भेदमुपेयुषे इत्यस्य विवरणम् अतो न गतार्थत्वदोषः
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेऽसिसृक्षया प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ
स्त्रीपुंसाविति स्त्री च पुमांश्च स्त्रीपुंसौ अचतुर इत्यादिना अच्प्रत्ययान्तो निपातः शिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेः द्विधाकृतविग्रहस्य ते तव आत्मनः देहस्य भागौ आत्मभागौ आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि इति विश्वः तावेव भागौ प्रसृतिभाजः उत्पत्तिभाजः सृज्यत इति सर्गः तस्य निजसृष्टेः इत्यर्थः माता च पिता च पितरौ पितामात्रा इत्येकशेषः स्मृतौ वृद्धैः इति शेषः द्विधा कृत्वात्मनो देहं अर्धेन पुरुषो भवत् अर्धेन नारी तस्यां सह विराजमसृजत् प्रभुः इति
स्वकाल परिमाणेन व्यस्तरात्रिं दिवस्यते यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ
स्वकालेति स्वकालस्य परिमाणेन चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इत्युक्तरूपेण व्यस्तं विभक्तं रात्रिं दिवं रात्र्यहनि यस्य तस्य यद्यपि अचतुर इत्यादि सूत्रेण रात्रौ च दिवा च रात्रिं दिवमिति सप्तम्यर्थे वृत्तौ द्वन्द इत्युक्तं तथापि दोषामन्यमः दिवामन्या रात्रिः इत्यादौ इव अत्रापि प्रातिपदिकार्थवृत्तित्वं कथञ्चित् प्रयोगबलात् आश्रयणीयम् ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी यदाहुः यदा स देवो जागर्ति तदैव चेष्टते जगत् यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते इति एतच्च दैनन्दिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात्
जगद्योनिः अयोनिस्त्वं जगदन्तो निरन्तकः जगदादिः अनादिस्त्वं जगदीशो निरीश्वरः
जगदिति हे भगवन् त्वं जगद्योनिः जगत्कारणं स्वयं अयोनिः अनादित्वात् अकारणकः त्वम् अन्तयतीत्यन्तः पचाद्यच् जगतः अन्तः जगत्संहर्ता स्वयं निरन्तको नित्यत्वात् अन्तरहितः त्वं जगताम् आदिः जगदादिः सृष्टेः प्रागपि सन्नित्यर्थः अत एव त्वम् अनादिः आदिरहितः त्वं जगताम् ईशः नियन्ता स्वयं निरीश्वरः अनियम्य इत्यर्थः यतो वा इमानि भूतानि जायन्ते इत्यादि श्रुतिरेवात्र प्रमाणम् अत्र अयोनिरित्यादौ नै तत्पुरुषाश्रयणे विरोधः बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालङ्कारः यथाहुः विरोधे तु विरोधाभासः इति
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना आत्मना कृतिना च त्वम् आत्मन्येव प्रलीयसे
आत्मानमिति हे भगवन् त्वम् आत्मानं लोकानुग्रहार्थं ब्रह्मरूपेण उत्पिपादयिषितं स्वस्वरूपं आत्मनैव वेत्सि जानासि सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः तथा आत्मानं आत्मनैव आत्मन्येवेति अत्रापि सम्बध्यते स्वस्मिन्नेव सृजसि अधिष्ठानमपि स्वयमेवेत्यर्थः स्वे महिम्नि प्रतिष्ठितम् इति श्रुतेः कृतिना समर्थेन इदं सर्वत्र सम्बध्यते आत्मना स्वेनैव आत्मन्येव प्रलीयसे स्वस्मिन्नेव प्रलीनो भवसि लीयतेः दैवादिकात् कर्तरि लट् प्रकृत्यादिभ्य उपसङ्ख्यानम् इति वार्तिकात् सर्वत्र आत्मनेति तृतीया नहि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः।